यज्ञाय गातं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वं जगातु भेषजम् शन्नास्तद्विपदे सञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः।
ॐ सहस्रशेरशः पुरुषः
सहस्राक्षसहस्रपात् स भौमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकं सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषाणः यदन्नेनातिरोहते येतावानस्य महिमा अतोज्यायागश्च पुरुषः पादास्य विश्वभूतानि त्रिपादस्यामृतं दिवे त्रिपादोर्ध्वमुदैत्पुरुषः पादास्येहाभवात्पुनः ततो विश्वं व्यक्रामत साशनानशने अभे तस्माद्विराडजायत विराजो अधिपुरुषः स जात अत्यरिच्यत पश्चाद्भूमिमथ पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्त अस्यासीदाज्यम् ग्रीष्मयध्म शरद्धवेः सप्तास्यासन् परिधयः त्रिः सप्त समिध कृताः देवायज्ञन्तन्वानाः अबध्नन् पुरुषम् वशम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देव अयजन्त साध्यारुषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् अशोकस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रचः सामानि जज्ञरे छन्दागुंसि जज्ञरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये के च भजादतः गावाः जज्ञरे तस्मात् तस्माज्जात अजावयः यत्पुरुषम् व्यदधोः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावोरोपादा उच्येत ब्राह्मणो अस्य मुखमासेत बाहो राजन्यकृतः वोरो तदस्य यद्वैश्यः पद्भ्यागम् श्रोत्र अजायत चन्द्रमा मनसो जातः चक्षुः सूर्य अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वाजुरजायत नाभ्या आसेदन्तरिक्षम् शेष्णोद्योः समवर्तत पद्भ्याम् भूमिर्दिशस्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तपारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत यः भवते नान्यः पन्था अजनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधे तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत यः भवते नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरेचेनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणा विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मेश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण ॐ शान्तिः शान्तिः शान्तेः।